एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड राष्ट्रव्याप्तस्य भ्रष्टाचारस्य विरूद्धे युद्धम् प्रारब्धम् यच्च अतः परम् नावरुध्यते इति प्रतिबद्धताम् व्यनक्ति। कर्णाली प्रदेशस्य सुर्खेत स्थाने समाजवादी संयुति नेपालेन पूर्वे जिहो आयोजिताम् सन्देश सभाम् सम्बोधयन् प्रधानमन्त्री प्रचण्ड नूतन संकल्पेन राष्ट्र निर्माणस्य अनवरत यात्रायाम् संस्थाय राष्ट्रस्य सुशासनाय विकासाय समृद्धाय च स्वस्य जीवनम् समर्पय इत्यभासत। प्रधानमन्त्री प्रचण्ड प्रावोचत सुशासनाय भ्रष्टाचार विरोधिने अभियानाय च नेपालस्य राजनीतिक दलैः सर्वेषां सम्बद्ध पक्षाणां सहयोग आवश्यको वर्तते। असौ कर्णाली तटीय मार्गेण कर्णाली प्रदेशस्य जनताया भविष्यं सुनिश्चित्य मार्गोऽसौ आर्थिक क्रान्तेः आधारो भविष्यति इति विश्वासम् अभिव्यनक। प्रधानमन्त्री प्रचण्ड क्रान्तिकारिण सचेष्टा भवितुम् इतोप्य अधिक विपुल संयुतिम् निर्माय एकताबद्धतया अग्रे वर्धितुम् च अन्वरुणत। वामान्दोलनेन नेपालस्य परिवर्तनाय ऐतिहासिक भूमिका निरूढेति निगदन् प्रधानमन्त्री प्रचण्ड विगत समय बीते आन्दोलने अग्रणी भूमिकाम् निर्वहन् कर्णाली प्रदेश अत परमपि समाजवादी संयुते केन्द्रम् भविष्यतीति अतर्कयत। राष्ट्रपतिना रामचन्द्र पौडेलेन सह संयुक्त राज्य अमेरिका देशस्य संसदीय प्रतिनिधिमण्डलेन ह्य शिष्टाचार मेलवार्ता विहिता। तदवसरे नेपाल अमेरिका देशयोर्मध्ये विद्यमानस्य द्विपक्षीय सम्बन्धस्य पारस्परिक हिताभिरुच्योश्च विषयेष् वार्ता विहितेति राष्ट्रपति कार्यालयस्य प्रवक्त्रया शैलजा रेग्मी भट्टराई इत्यनया ह्य प्रकाशितायाम् विज्ञप्तौ ज्ञापितम् वर्तते। सर्वकारेण शिला तैलीय पदार्थानाम् मूल्यम् वर्धितम् वर्तते। नेपाल तैल निगमस्य अनुसारेण पेट्रोल तैले प्रतिलिटरमितम् चत्वारि, डिजेल मृत्तिका तैलयोः प्रतिलिटरमितम् त्रिणि, एलपी ग्यास नाम्नः पाचन इन्धनस्य सिलिण्डर भाण्डमितम् पञ्चत्रिंशदुत्तर शतद्वयम् च रूप्यकाणि वर्धितानीति सन्ति। गत मध्यरात्रितः क्रियान्वितेति ज्ञापयति। भारतीय तैल निगमात् ह्यो मूल्यवृद्धि प्राप्तेति हेतोः नेपालेपि शिला तैलीय पदार्थेषु मूल्यवृद्धि विहितेति निगमस्य विज्ञप्तौ ज्ञापितम् वर्तते। चीनदेशेन सह सम्पृक्तोत्तर सीमा तातो पानी प्रवेशबिन्दु अद्यतः सञ्चाल्यमानो वर्तते। चिराय पीता गमनागमन तातो पानी प्रवेशबिन्दुरसौ अद्यतः सञ्चाल्यमानोऽस्ति। गत मंगलवासरे तिब्बत क्षेत्रस्य ल्हासा स्थाने चीनदेशीयानाम् नैपालकानाम् च अधिकारिणाम् मध्ये सम्पन्नेन उपवेशेन अनेन प्रवेशबिन्दुना स्थानीय सर्वसाधारणानाम् कृते गमनागमनाय अनुमतिम् प्रदातुम् निर्णीतमिति सिन्धुपाल्चोक प्रमुख जनपदाधिकारी रमेश न्यौपाने अज्ञापयत। द्वासप्तत्यधिक द्विसहस्रतम वैक्रमाब्धस्य भूकम्पोत्तराद् इतः तातोपानी प्रवेश बिन्दुरसौ पीतः सन्नपि मासत्रयात् पूर्वं सामग्रीवाहकयानानां गमनागमनं सञ्चालितम् आसीत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड नेपाली सेनाया छाउनी स्थिते वीरेन्द्र चिकित्सालये उपचाररतम् उप प्रधान रक्षा मन्त्रिणम् पूर्णबहादुर खड्गाविदम् पूर्वे द्युः मिलित्वा एतस्य स्वास्थ्यावस्थाम् अजानात्। उप प्रधान रक्षा मन्त्री खड्का पौरुष ग्रन्थिभागे समस्योद् भवनमनु ह्य एतस्मिन् चिकित्सालये प्रविष्टः आसीत्। चिकित्सालयस्य समादेशक प्राविधिक सहायक रथिन प्राध्यापकस्य डाक्टर भरतबहादुर भण्डारिणः नेतृत्वस्य चिकित्सक समूहेन उप प्रधानमन्त्रिणः खड्गाविधस्य पौरुष ग्रन्थिभागस्य सफलतापूर्वकं शल्यक्रिया सम्पादिता वर्तते। शल्यक्रियाया पश्चात् चिकित्सालयस्य उपचारकक्षे विद्यमानस्य रक्षा मन्त्रिणः खड्गाविधस्य स्वास्थ्यावस्था सुधारोन्मुखा स्थिति प्राध्यापकः डाक्टर भण्डारी असूचयत्। उपप्रधान गृहमन्त्री नारायण काली श्रेष्ठ कथयति सर्वकारेण सुशासनस्य अभियानम् नविरम्यते। नेपाल पर्वतारोहण संघस्य त्रयस्त्रिंश्याम् वार्षिक साधारण सभायाम् उप प्रधानमन्त्री श्रेष्ठ सर्वकारेण सुशासनम् संस्थाप्यैव समृद्धि तीव्रता प्रदीयते इति प्रावोचत। गृहमन्त्री श्रेष्ठ समृद्धियात्राम् अग्रे वर्धयितुम् सुशासनस्य अभियानस्य प्रभावकारी रूपेण अग्रे वर्धापनस्य विकल्पो नास्तीति उदैरयत। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत दीर्घकालात् एकत्र स्थित्वा कार्यरतानाम् कर्मचारीणाम् स्थानान्तरणस्य प्रक्रियाम् अग्रे वर्धयितुम् निर्दिशति। ह्यः नेपालगंजवर्तिना भेरी चिकित्सालयस्य निरीक्षणस्य क्रमे चिकित्सालय विकास समित्या आयोजिते कार्यक्रमे मन्त्री बस्नेत सम्पर्कस्य शक्तेश्चाधारेण मन्त्रालय स्वस्य अनुकूल स्थाने वा वर्षेभ्यः कार्याय प्रेषिताः जनाः अतपरं मासाभ्यन्तरे एव स्वस्य पदस्थानवर्तिनि क्षेत्रे प्रेष्यन्ते इति अज्ञापयत्। स्वास्थ्य मन्त्री बस्नेत कुत्रचित् आवश्यकात् अधिकाः स्वास्थ्यकर्मिणः सन्ति, कुत्रचित् स्वास्थ्यकर्मिणाम् अभाव एव वर्तते इति परिस्थितेः सृष्टेः पश्चात् कार्याय प्रेषितानां जनानां प्रत्यावर्तनस्य कार्यम् प्रभावकारी रूपेण विधीयमानमस्ति इति समस्पष्टयत्। अर्थमन्त्री डाक्टर प्रकाश शरण महत कथयति द्वादश्या कक्षायाः अध्ययनस्य समाप्ते अनुपदमेव विदेशो गन्तव्य इति मानसस्य परिवर्तनस्य आवश्यकता वर्तते। ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे अर्थमन्त्री महत अवाचत राष्ट्रिय रूपेण सर्वैः बहिः गन्तव्य इति यूनां मानसस्य परिवर्तनम् आवश्यकमस्ति। अर्थमन्त्री महत नेपाले प्रविधेय क्षेत्रे महान् अवसरो वर्तते इति प्रत्यपादयत्। भविष्यस्य कर्णधाररूपाणां बालबालिकानां समुज्ज्वल जीवनाय शास्त्रीय ज्ञान प्रदानस्य उद्देश्येन डाक्टर स्वामी केशवानन्देन संस्कार शिक्षा नामकं पुस्तकं सार्वजनिकृतं वर्तते। डाक्टर स्वामी केशवानन्देन लिखितं पुस्तकमिदं ह्यः पाशुपत क्षेत्रे आयोजिते कार्यक्रमे पञ्चकन्येन सार्वजनिकृतम्। सनातन संस्कृतेः मानवीय मूल्यस्य च सर्वोत्कृष्ट यात्रायै पुस्तकं प्रणीतमिति डाक्टर स्वामी केशवानन्दः अवाचत। पुस्तके गणेश वन्दना, सरस्वती वन्दना, शिवस्तुतिः, गुरु वन्दना, देवी वन्दना, विष्णुस्तुतिः, लक्ष्मी वन्दना, सूर्य वन्दना, कृष्णस्तुतिः, राम वन्दना, हनुमत वन्दना, विभिन्न पर्वोत्सवाः, संस्कार शिक्षा च उल्लिखिताः सन्ति। सुवर्ण तस्कर्य प्रकरणे निगृहितेन तिब्बत मूलकेन बेल्जियम देशस्य पारपत्रधारिणा दावा छिरिङ इत्यनेन काभ्रेपलाञ्चोक जनपद प्रशासन कार्यालयात् निमा तामाङ इति नाम्ना नागरिकता गृहीतेति पुष्टिभूतं वर्तते। गृहमन्त्रालयस्य अनुसारेण अनेन काभ्रेपलाञ्चोक जनपदस्य नमोबुद्ध नगरपालिकायाः एकादशवडा क्षेत्रस्य पेमा तामाङ इत्यस्य पुत्रो भूत्वा नागरिकता गृहीतेति गृहमन्त्रालयेन संघटितेन अनुसन्धान दलेन पुष्टिकृतं वर्तते। गृहमन्त्रालयस्य प्रवक्तुः नारायण प्रसाद भट्टराई इत्यस्य अनुसारेण विषयमम् अनुसन्धातुं गतश्रावणस्य द्वाविंशे दिवसे गृहमन्त्रालयस्य नागरिकता राष्ट्रिय परिचय पत्र व्यवस्थापन शाखायाः उपसचिवस्य कृष्ण बहादुर कटुवाली इत्यभिधेयस्य संयोजकत्वे पञ्चसदस्यीय अनुसन्धान समितिः संगठिता आसीत्। देशे अस्मिन् वर्षे वर्षायामे ज्येष्ठस्य एकत्रिंशात् दिवसात् भाद्रस्य अष्टमं दिवसं यावत् जलविप्लव भूस्खलन वज्रपातैः त्रिसप्ततिर्जनाः मृताः सन्ति। एतस्मिन् अवधौ द्व्यधिक शतं जनाः आहताः, विंशतिर्जना विलुप्ताश्च वर्तन्ते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य कार्यकारी प्रमुखस्य अनिल पोखरेलस्य अनुसारेण वर्षायामे देशस्य पञ्चत्रिंशत् शते स्थानेषु जलविप्लवस्य एकोनत्रिंशदुत्तर चतुश्शते स्थानेषु भूस्खलनस्य त्र्यशीतेः वज्रपातस्य च घटनाः दुरापन्नाः आसन्। दक्षिण अफ्रिका देशस्य जोहानेसबर्ग स्थानस्य मध्यभागे अवस्थिते एकस्मिन् भवने अग्निदाहेन न्यूनतोपि त्रिसप्ततिर्जनाः मृताः, पञ्चाशतोपि अधिकाः जना आहताश्च वर्तन्ते इति तत्रत्य अधिकारिणः ज्ञापयन्ति। इति समाचारः।